एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। जाजरकोट जनपदस्य छेडागाड नगरपालिकायां ह्यो बोलेरो जीप यानम् दुर्घटितम् सद् एकादश जनाः मृताः सन्ति। दुर्घटनायाम् एकस्यैव वडा क्षेत्रस्य सप्त जनाः अम्रियन्त। दुर्घटनायां मृतेषु दैलेख जनपदस्य त्रय, जाजरकोट जनपदस्य अष्टौ च जनाः सन्ति। नैज जीपयानमेतद् छेडागाड नगरपालिकायाः तृतीय वडा क्षेत्रवर्तिनो जेवास्थानात् चतुर्थ वडा क्षेत्रस्य लेवास्थानाय प्रस्थानक्रमे दशहरा भृगोः निपतितम् आसीत्। जीपयाने द्वादश जनाः आरूढाः आसन्। दुर्घटनायां गभीरेण आहतः एको जनः उपचाराय नेपालगंज स्थानं प्रेषितो वर्तते। सर्वकारेण एतद् वैक्रमाब्दस्य राज्योद्दण्डनापराध कार्यविधि संहिता प्रथम संशोधनाध्यादेशस्य क्रियान्वयनाय राष्ट्रपते समक्षम् प्रस्तुतुम् निर्णीतम् वर्तते। अस्यैव मार्गशीर्ष मासस्य पञ्चविंशे दिवसे उपविष्टस्य मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिक कर्तुम् ह्य सिंहप्रासादे आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की आन्तरिकतया सर्वेषां कृते कार्यसम्पादनाय सहज वातावरण निर्माणस्य अभिप्रायेण अध्यादेशसु क्रियान्वेतुं राष्ट्रपते समक्षं सर्वकारेण परामृष्टो स्थिति अवोचत। सर्वकारस्य प्रवक्ता च संचार मन्त्री कार्की समष्टि क्षमादान प्रदानत्वेन एतादृशी सहमतिः विगत समयेऽपि विहितेति ब्रुवन्। सर्वेषाम् आन्तरिकतायाः मार्गे आनयनस्य उद्देश्येन अध्यादेशः क्रियान्वेतुं राष्ट्रपते समक्षं परामृष्टव्यः अभूत् इति स्पष्टयत। संचार मन्त्री कार्की सार्वजनिक संस्थान समितिम् अतिरिक्तम् प्रभावकारिणीम् समावेशीपूर्णं च विधातुम् महिला सदस्यद्वयम् वर्धयितुम् नेपाल राष्ट्रिय पुरुष सैनिक संघाय सर्वकारीय भूमेः आवधिकानुबन्ध व्यवस्थापन पद्धत्या प्रदानाय स्वीकृतिम् दातुम् च मन्त्रिपरिषदा निर्णीतमिति अवोचत। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल गदति विश्वस्मिन् विश्वे वर्धमानं जलवायोः परिवर्तनं यथासमयं न्यूनीकर्तुम् असमर्थं सद् कृषेः उत्पादने प्रतिकूल प्रभावः भविष्यति। अन्तर्राष्ट्रिय कृषकान्दोलनस्य विश्वव्यापी नेतृत्वस्य स्थायी समिते उपवेशस्य ह्य ललितपुरे शुभारम्भस्य क्रमे अध्यक्षो नेपाल जलवायोः परिवर्तनेन हिमालयानं स्यन्दनं जलविप्लव भूस्खलनयोः संकट उत्पादने न्यूनता चेति समस्याः प्रारब्धाः सन्ति त्यत्र चिन्ताम् व्यक्तवान्। ललितपुरस्य गोदावरी स्थाने ह्यस्तन दिवसात् पौषस्य द्वितीयं दिवसं यावत् सञ्चाल्यमाने उपवेशे नेपाल भारत बंगलादेश पाकिस्तान श्रीलंका प्रभृतीनाम् अशीतेर राष्ट्राणाम् कृषक संगठनानाम् नेतृत्वानि प्रतिनिधयश्च सहभागिनो वर्तन्ते। प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानां निर्वाचनाय निर्वाचनायोगेन क्रियान्विता एतद् विक्रमवर्षीया निर्वाचन आचार संहिता ह्यस्तन दिवसात् निष्क्रिया अस्ति। अस्यैव मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्नाय निर्वाचनाय क्रियान्विताम् आचार संहिताम् ह्यस्तन दिवसात् निष्क्रियां कर्तुम् निर्णीतमिति निर्वाचन आयोगेन ज्ञापितमस्ति। वर्तमान नेपालस्य पाठ्यक्रमे जनाभिरूचि इति विषये ह्य काष्ठमण्डपे परिसंवाद कार्यक्रम आयोजित। राष्ट्रिय समावेशी आयोगस्य वाल्मीकि विद्यापीठस्य नेपाल शिक्षण परिषदश्च संयुक्त तत्वावधानेन आयोजिते तस्मिन् कार्यक्रमे नवनिर्वाचिता सांसदा प्राध्यापका शिक्षाविदश्च पाठ्यक्रमे समावेशनीयानां विषयाणां सम्बन्धे धारणाम् उपस्थापयन्। सांसद नारायण प्रसाद साउद संस्कृतस्य कालजयी ज्ञानराशिं पाठ्यक्रमे समावेष्टुं परामृशद। सांसद शंकर भण्डारी संस्कृत संस्कृत्योः संरक्षणाय प्रतिबद्धताम् अभिव्यनक। सांसद डा चन्द्र भण्डारी नेपाल संस्कृत विश्वविद्यालयस्य पाठ्यक्रमं परिष्कर्तुं बलं प्रादात्। अपरः सांसद बद्री पाण्डे पाठ्यक्रमस्य निर्माणावधौ संस्कृतस्य वैशिष्ट्यम् अंगीकर्तुं परामृशद। प्रदेश सभायाः सांसद हरिप्रभा खड्गी समावेशी आयोगस्य अध्यक्ष डा रामकृष्ण तिमल सिन्हा मधेसी आयोगस्य अध्यक्ष विजय दत्तश्च संस्कृत वाङ्मय निगूढतया सन्निहितं राष्ट्रिय मौलिकता प्रदर्शकं विषयवस्तु पाठ्यक्रमे समावेशनीयमिति अवदन्। वाल्मीकि विद्यापीठस्य प्राचार्यस्य प्राध्यापकस्य डाक्टर भागवत ढकालस्य सभापत्ये सम्पन्ने कार्यक्रमे डाक्टर विदुर चालिसे विश्लेषक सौरवा समावेशी आयोगस्य सदस्य विष्णुमाया ओझा डाक्टर प्रेमराज न्यौपाने डाक्टर वासुदेव कृष्ण शास्त्री ऋषिकेश जंग शाह विमल केडिया रमेश जोशी च पाठ्यक्रमे संस्कृतस्य उपयोगिम उपयोगिनी विषयवस्तुनि योजयितुं परामृशन् तदवसरे आयोजकानां पक्षतः एतादृशः कार्यक्रमः व्यापक जनसहभागितायां पुनः आयोक्ष्यते इति ज्ञापितम् आसीत्। राष्ट्रिय समाचार समित्या संसदः समाचाराणां संकलकानां सम्प्रेषकाणां च क्षमतायाः विकसनस्य उद्देश्येन ह्यः काष्ठमण्डपे संसदीय समाचार संकलन प्रशिक्षण कार्यक्रमः आयोजितः। प्रशिक्षणम् उद्घाटयन् संचार सूचना प्रविधि मन्त्रालयस्य सचिवः डाक्टर वैकुण्ठ अरियालः राष्ट्रिय समाचार समित्या स्वस्य सेवया सह प्राविधिक पक्षस्य अतिरिक्त सुदृढीकरणेन अग्रे वर्धनीयमिति बलं प्रादात्। धरारा स्तम्भस्य पुनर्निर्माणस्य क्रमे सुन्धारास्थाने जलप्रेषणस्य मूलनलिकायाः विनाशनत्वेन डोजरयानं संचालितमिति निगद्य काष्ठमण्डप महानगरपालिकायाः प्रमुखः बालिन शाह आपत्तिं प्रकटयति। काष्ठमण्डपस्य न्यूरोडवर्तिनी संकटा क्लब स्थाने ह्यः आयोजिते पत्रकार सम्मेलने प्रमुखः शाह नेपालस्य मौलिक कला संस्कृत्योः रूपेण स्थितायाः ऐतिहासिक्याः सुन्धारायाः संरचना निर्माणस्य नाम्नि न त्रुटनीया एतस्याः संरक्षणं विधेयमिति बलं प्रादात्। प्रमुखः शाह सुन्धारास्थाने निर्मीयमाणानां संरचनानां विरोधनेन सह तत्र विधीयमानानि सम्पूर्ण निर्माण कार्याणि रोद्धुं सम्बद्ध निर्माणानुबन्धकः अनुरुद्धोऽस्ति। दैवज्ञ राजन्यौपाने स्मृति प्रतिष्ठानेन चत्वार साहित्यकाराः सम्मानयिष्यन्ते। प्रतिष्ठानेन पञ्चपञ्चाशतः सहस्राणां पञ्चपञ्चाशदधिक पञ्चशतस्य च रूप्यकाणां दैवज्ञ विशिष्ट सृष्टि सम्मानेन वरिष्ठ साहित्यकारः प्राध्यापकः डाक्टर वासुदेव त्रिपाठी पुरस्करिष्यते। एवमेव त्रयस्त्रिंशतः सहस्राणां त्रयस्त्रिंशदधिक शतत्रयस्य च रूप्यकाणां दैवज्ञ साहित्य पुरस्कारेण कविं जसराज किराती इत्यमुं दैवज्ञ बाल साहित्य पुरस्कारेण वरिष्ठं बाल साहित्य स्रष्टारं गोपाल पराजुलिं दैवज्ञ समाजसेवा पुरस्कारेण समाजसेविकां सीता पोखरेलं च सम्मानयितुं निर्णीतमस्ति। पुरस्कारः इमे पुरस्कारस्य प्रेरणा पुरुषस्य कवेः दैवज्ञस्य स्मृतिदिवसस्य अवसरे आगामिनः पौषस्य त्रयोविंशे दिवसे काष्ठमण्डपे प्रदास्यन्ते इति ज्ञापितमस्ति। काष्ठमण्डपोपत्यकाप्य जल लिमिटेड संस्थानस्य आयोजना क्रियान्वयन निर्देशनालयेन मेलञ्ची नद्याः पेयजलस्य वितरणाय निर्मिते लयञ्चुरस्थिते नवीन वितरण सञ्जाले समस्योद्भवनमनु प्राक्तनेनैव सञ्जालेन जलं प्रेषितं वर्तते। नवीन सञ्जाले समस्या सर्जनानन्तरं काष्ठमण्डपोपत्यका पेयजल लिमिटेड संस्थानस्य प्राक्तन सञ्जालेनैव राजधान्याः मुख्य नगरेषु जलं प्रेषितमिति निर्देशनालयस्य प्रवक्ता सूचनाधिकारी च चन्द्रकुमार श्रेष्ठः अज्ञापयत्।